બ્રહસ્પતિર્ના પરિપાત પશ્ચાદ સ્મૃતરાઘરાયો ઇન્દ્ર પુરસ્તામધ્યતો ન સખા સખેભ્યો વરી વાકૃણોતુ શ્રીખાદ્રુકેશુ મહિનો મહિષો યવાશ્રમ થુઈ સુષ્મસ્ત્ર પત્સો મોમપી બાત વિષ્ણુ ના સુતમ યથા ભોષત સઈમ માધમહિ કર્મ કરતો વે મહામુરુમ સૈનામ સચ્ચ દેવો દેવમ સતમિંદામ સતમિંદુઃ પુરો સ્વસ્મૈ પુરોરથમિંદ્રાય સુષમર્જતા અભિકેચિદુલોકકૃત સંગે સમસુવૃત્રા અસ્માકં બોધિચોધિતાન ભંતા મન્નકેશાજાગાજન્મસુ તં સિંધૂમ્રવાસ જોધરાજો અહન્નહેમ અશત્રુરેન્દ્રજં જગ્નિશ્રે વિશ્વાંબુષ શિવાજંદ્વા પરિશ્વજામહેન્ભંતા મન્નકેશાજાગાજન્મસુ વિષુ વિશ્વ આરાધયો ન શંતનો ધિયા અસ્તાસી શત્રો નિઘાંસુ તીવ્રસ્યાસો અસ્ય પાહિ સર્વદા ઇહમુંચા યજમાનાસો અન્ય નિરીરમંતુ મિમે સુતાસાહ તુભ્યાં સુતા તુભ્યમુસોત્વાસસ્વાંગિરશ્વાભયંતિ ઇન્દ્રેતમધ્ય સવદંજુષાનો વિશ્વસ્ય વિદ્વાં ઇહ પાહિ સોમાં યઉષતા મનસા સોમોમસ્મૈ સર્વૃતા દેવકામસ્નુતિ નગા ઇન્દ્રસ્તસ્ય પરાદાદિ પ્રશસ્તમિચ્ચારુમસ્મૈ ગ્નોતિ અનુસ્પષ્ટોપવત્તેષો અસ્યો અસ્મૈ દેવાન સ્નુતિ સોમાં નિરોરત્નૌ ભગવાતું દધાતિ બ્રહ્મદ્વિષો હંતિનાનુદિશ અશ્વાયંતો ગમ્યંતો વાર્યંતો હવામહેતોપગંતવાઉ આભૂષાંતસ્તે સુમતો નવાયાં વયમિન્દત્વા શૃણમ હુવેમ મુંચામિ ત્વા વિશાજીવો નાયકમજ્ઞાધ્યક્ષ્માદુત્રાધ્યક્ષ્માદ ગ્રાહિર્જગ્રાહ્યદ્યેતતે નંદસ્યા ઇન્દ્રાગ્નિ પ્રમુક્તમેનમ યદીક્ષિતા યુરતિ વાપરેતો યદિ મૃત્યોરાંતિકન્નીરેવા તમાહોરામિનિરૃતે ઉપસ્થાતસ્પાશમેન મૃતસાર્દાય સહસ્રાશેન શતવીર્યેન શતાયુષા હવિષાહાશમેનામ ઇન્દો યથૈનં શરદો ન યાતતે વિશ્વસ્ય દુરિતસ્ય પારામ શતંજીવ શરદો વર્ધો માનસ્તં હેમંતાં શતમુ સંતાન શતંત ઇન્દ્રો અગ્નિસ્વિતા બૃહસ્પતિ શતાયુષા હવિષાહાશમેનામ આહાશમવિદંત્વા પુનરાગાઃ પુનર્નવઃ સર્વાંગ સર્વાન્તે ચક્ષુસર્વમાયુશ્ચતે વિદામ બ્રહ્મોનાગ્નિસંવિદાનો રક્ષોહા બાધતાં બાધતામિતઃ અમીવાયસ્તે ગર્ભંધુર્ણામાયોનિમાશયે યસ્તે ગર્ભમમીવાધુર્ણામાયોનિમાશયે અગ્નિષ્ટં બ્રહ્મોના સહ નિષ્ક્રવ્યા ગૌમની નશત યસ્તે હંતિ પતયંતં શશ્નુયસ્વરીસૃપાં જાતં યસ્તે જિઘાંસતિ તમિતો નાશયામસે યસ્ત ઊરૂ વિહરત્યંતરાતં પોતિશયે યોનિંજો અંતરારેહિતમિતો નાશયામસે યસ્ત્વા પ્રાતાપતિર્ભૂત્વા જારો ભૂત્વા નિપદ્યોતે પ્રજાયસ્તે જિઘાંસતિ તમિતો નાશયામસે યસ્ત્વા સ્વપ્નેન તમસા મોહયિત્વા નિપદ્યોતે પ્રજાયસ્તે જિઘાંસતિ તમિતો નાશયામસે અક્ષીભ્યાં તે નાસિકાભ્યાં કર્ણાભ્યાં શુભુઘાતસી યક્ષ્માં શીર્ષણ્યાં મસ્તિષ્કા જિહ્વાયા વિબૃહામિ તે વિવાભ્યસ્તૌષ્ણ્યાભ્યકેકોષાભ્યવનુક્યાતો યક્ષ્માં દોષણ્યામંસાભ્યાં બાહુભ્યાં વિબૃહામિ તે હૃદયાતે પરિક્લોબ્નો હતીક્ષ્ણાત્ પાર્શ્વાભ્યાં યક્ષ્મમદસ્નાભ્યાં પ્લીનો યક્નસ્તે વિબૃહામસે આંતેભ્યસ્તે ગુદાભ્યુવનિષ્ઠો રુદરાદસી યક્ષ્મં કુક્ષિભ્યાં પ્લાસેનાભ્યવ્યુરુહામિ તે ઉરુભ્યાં દેશ્રીમદ્ભ્યાં પાષ્ણિભ્યાં પ્રબોધાભ્યાં યક્ષ્મં વસદ્યાં શોનિભ્યાં ભાસોદંબં સોસો વિબૃહામિ તે અસ્થિભ્યસ્તે મજ્જભ્યસ્નાભ્યો ધમનિભ્યઃ યક્ષ્મં વાણીભ્યાં અંગુલિભ્યો નખેભ્યો વિબૃહામિ તે अंगे अंगे लोमनि लोमनि यस्ते पर्वणि पर्वणि यक्ष्मन् तदस्यन् देवयं कश्यपस्य वि बधेन विश्वं च मिवृहमसि अपेहि मनसस्पते वक्राम परश्चोरा परो निहृत्य आकक्षो बहुधा जीवतो मनाः वयमेन मिदायुपीपे मेह भद्रिणाम् तस्माउ अद्य स मना सुतं भदा नूनं भूषदशुदे मृकशिदस्य वारन उरामशिरावयुनेषु भूषदे सेमन्नस्तोमान् स्तोमान् जृषान् आगहीन्द्रपचित्रया धिया कदून्वास्याकृतमिन्द्रस्यातिपौंस्याम् केनोऽनुकं श्रोमोदेनो न शुश्रुवे जनुषा परिद्रोहा स्वामिद्धि हवामहे सातावादस्य कारवाः त्वां रुद्रेष्विन्द्रसत्पोतिन्नरस्त्वाङ्काष्ठास्वर्वोदः सत्त्वं नश्चित्रो वृद्वज्रहत् धृष्णुयामहस्तो वानोहद्रिवः गामश्वां रथ्योमिन्द्रसङ्किरजसत्रावाजन्न जिगिषे अविद्वा पूर्वपीतय इन्द्रस्तो मे विरायवाः समीचीना सर्ववसमसुरन् रुद्रानन्दपूर्व्याम् अस्यजिन्द्रो वावदे विष्णुं शभो मदे सुतस्य विष्णवि अज्ञातमस्य महिमानमायवोऽनुष्टुवन्ति पूर्वथा अधाहीन्द्रगिर्वनुपत्मागामान्महस सृज्महे उदेवयन्त उदभिः वाण्यतमाय व्याभिर्वधन्ति शूरब्रह्माणि आवृध्वां सन्ति तदिवो दिवे दिवे युञ्जन्ति हरीशिरस्य गातो योरौरथ उरुयुगे इन्द्रवाहामतो युजा अग्निन्दूतं वृणीमहे होतारमिषुवेदसम् अस्य यज्ञस्य सुक्रतुम् अग्निमग्निं हवीमविशदा हवन्ति विश्वतीं हव्यवाहं गुरुप्रियाम् अग्ने देवाम् इहावहज्ञानो वृतबर्हिषे असि होता न ईड्याः इन्वेन्यो नमस्या नमस्या नमस्यस्थिरस्तमांसि दशदः समग्निरिद्यते उषा विशो अग्निसमिध्यते शो न देवबाहुनः तमविष्मन्दीयते विशोनं त्वा वयं वृषन् विशो न समिधीमहि अग्ने दीद्योतं बृहत अग्निमीश्वावोसे गाताभिशीरसो दिशाम् अग्निं राये पुरुमीरसुतन्नरोऽग्निं सुधितये छर्दिः अग्न आयाह्यग्निभिर्होतारुन्द्वर्णीमहे आत्मामोनक्तु प्रयोताहविष्मोदीयजिष्ठं बर्हिरासते अच्छाहित्वा सहसूनुवङ्ग्रसुचरन्दध्वरे ऊर्जुनपातं कृतकेशमीमहे अग्नियज्ञेषु पूर्व्याम् इमा उत्वा पुरुवसो गिरो वदन्तु यमम पापकवर्णाशुचयशुचो यो विपशितोऽभिस्तोमैरनुषदा अयं सहस्रमृषेभिः सहस्रतः समुद्र इव पप्रथे सत्यसो अस्य महिमा गृणेशवो यज्ञेषु विप्रोराज्ये अनु विश्वासु हव्यविन्दसमसुभूषतु उपब्रह्माणि सवनानि वृत्राः परमज्जर्चीषमः त्वं दाता प्रथमोरादवसामस्यसि सत्य ईशान कृतो त्वेद्योम्नस्य युज्यावृणीमहे पुत्रस्य शवसोमहः त्वमिन्द्रप्रतूतिष्वपि विश्वासि स्पृधाः अरस्तिहाजो निता विश्वतूरोऽसि त्वं तूरिदरुषतः अनु ते शुष्मन्तुरयन्तमीयतु शोणीशिशुन्न मातरा विश्वासे स्पृधस्नथयन्तु मन्यवे वृत्तं यदिन्द्रदूर्वोऽसि इत ऊतीवो अजरां प्रहेतारमप्रोहिताम् आशुञ्जेतारं हितारं रतीतममतूतन्तु कुर्यार्धम् यो राजा दशणीनां यातार्थे विरध्रिगुः विश्वासान्तृतापतनाञ्जेष्ठो यो वृत्रः गृणे इन्दन्तं शुम्बपुरुहन् मन्मन्नभोऽसे यस्य द्वीपतापि बद्धर्तवि हस्तायवज्रपतिधाय दर्शतो महो दिवे दिवेन सूर्याः तव त्यदिन्द्रियं बृहत्तव शुष्ममुदक्रतुं वज्रं शिशादिशनाभरेण्यं तव द्यौरिन्द्रपौंस्यां पृथिवी वसति श्रवः त्वामापर्वो दासस्य हिन्विरे त्वां विष्णुं बृहंसयो मृत्युगुणादिवरुणः त्वां शरदो मदत्यनुमारुताम् समस्य मन्य वे विषवो विषो विश्वान् मन्दकृष्णयाः समुद्राये वसिन्धवः ओजस्तदस्य तिद्विष उभे यत् समवर्तयत इन्दश्चरमे वरोदोषि विचिद्वृत्तस्य दोधतुः वज्रेण श्रपर्वणा शिरो विभेदवृष्णिना तदिदा स भुवने शुज्ये संयतो जज्ञ उग्रस्वेशन्द्रम् नः सद्यो जज्ञानो निरीनादिशत्रू ननुयते न मदन्ति विश उमाः भावधान शवसा भूयो जाशत्रुदासाय व्यसन् दधाति अव्यो नच्चव्यो नच्च सन्निशन्ते न मन्दप्रभृतामदेषु त्वे गतुमपि पृञ्चन्ति भूरिद्वर्यते ते त्रिभवन्त्युमाः स्वादो स्वादीय स्वादुनासजासमदस्सु मधुमधुनाभियोधीः यदि चिन्नुद्वादनादयन्तम्रणेरण्यनुमदन्ति विप्राः ओजीयशुष्मिन् स्थिरमातनुष्वमात्मातबन्धुरेवासकशोकाः त्वया वयं शाशतमहिरणेषु प्रपश्यन्तो युधेन्यानि भूरि चोदयामि तायुधावचो विसन्ते हिषामि ब्रह्मणाभयांसि नितद्दोधिषेवो रे परे च यस्मिन्नाभिधावो साधुरोणे आस्थापयत मातरं जघद्मत इन्वत कर्वराणि भूरि स्तुष्वभर्ष्मन्मुरु वर्तमानं समनुभानमिनत ममात्मात्यानाम् आदर्शति शव सा भूर्यो जाः प्रसक्षति प्रतिमानं पृथिव्याः इमा ब्रह्म बृहद्देव कण्वदिन्द्राय शूषमग्रियस्वर्षाः महोगोतस्य क्षयति स्वरा जातश्चिद्विश्वमन्नभक्तपस्वान् एवा महान् बृहद्दीवोऽथर्वापो तत्स्वान्तन्वामिन्द्रमेव प्रसारौमातरिभुवरि हरिप्रेहिन्वन्दि चैनेशवसा वर्धयन्ति च चित्रम् देवानाम् केत्वनीकम् ज्योतिष्मान् प्रदिश सूर्य उद्यान् दिवाकरोति द्युम्नैः समांसि विश्वातारि द्वितानि शुक्रः चित्रम् देवानामुदो घातनीकम् चक्षुरम् मित्रस्य वरुणस्याग्नेः आप्राद्या वा पृथिवी अन्तरिक्षम् सूर्य आत्मा जवोतस्तसुषश्च सूर्यो देवी मुषसंरोचमानाम् मर्यो न योषामव्येति पश्चात् तत्रा नरो देवयन्तो युगानि वितन्वते प्रतिभद्राय भद्राम् त्वन्नो इन्द्रावरो भोजो नम्नम् शतगतो विदशने आवीरम्बतनाशहम् त्वम् हि नः पिता वसो त्वम् माता शतगतो बभूविधा अधाते सुम्नमीमहे त्वाम् स्वस्मिन्पुरुहूत वादयन्तमुपब्रुवेशतकृतो स नो रास्वसुवीर्याम् स्वादोरिथाभिषुवतो मध्वपिबन्ति गौर्याः या इन्द्रेण स यावोरीकृष्णामदन्ति शोभसेवस्वीरनुस्वराज्याम् तास्य प्रदर्शनायुवः सोमाम् श्रीणन्ति कृष्णो याः प्रिया इन्द्रस्य धेनुभो वजो हिन्वन्ति साय कम्बस्वीरनुस्वराज्याम् अस्य नमो सा सहस्रपर्यन्ति प्रचेतसः प्रतान्यस्य सचिरे पुरूणि पूर्वचित्त एव स्वीरनुस्वराज्यम् इन्द्राय मदोने सुदम्बरिष्टो भन्तु नो गिराः अर्कमर्चन्तु कारवाः यस्मिन् विश्वाधिश्रियो रणन्ति सप्त संसदाः इन्द्राम् श्रुतेह वामहे त्रिकर्दुके शुचेतो नन्देवासो यज्ञमत्नता तमिद्वर्धन्तु नो गिराः यत् सोममिन्द्र विष्णोऽपि यद्वाघतित आप्ते यद्वा मरुत्सु मन्दो शेषमिन्दुभिः यद्वा शक्रपरावति समुद्रे अधिमन्दो मन्दोऽसे अस्माकमित्सुतेरो नासमिन्दुभिः यद्वा शिशुन्वतो वृधो यजमानसि सत्पते उक्थे वायस्य रण्यो शिशमिन्दुभिः यदद्य कच्छ वृत्रहन्दगा अभिसूर्या सर्वन् सर्वन् ददिन्दते वशे यद्वा प्रवृद्ध सत्पते नमो रायति मन्योऽसे उतो तत्सत्यमित्तवा ये सोमास प्रापति ये अरुम्भावति सुन्विदे सुन्विदे सर्वांसामिन्द्रकशसि उभयां शुनभच्च न इन्द्रो अर्वाभिधम्भटाः सत्राच्या मगवासो मोपीदये धियाशवेष्ठ आगमत तमीश्वरागाम शबंदमोजो सेदिशने निषतक्षतुः उतोपमानाम बथमो निषेदसि सोमगामं हिन्ते मनः अभ्रातृभ्यो अनातमना विरिन्दनुशासनादोऽसि उदेदापि तुमिच्छसे नकीरेवन्तां सख्याय बिन्दसेऽपि यन्दिते सुराश्वा जदाग्नोषि नदनं समूहस्यादिद्विते बहूयसे
अहमिद्यपि तुष्परि मेधामृतस्य जग्रभा अहं सूर्य इवाजनि अहं रत्नेन मन्म नागिरशुम्भामि गणभवत येनेन्द्रशुष्ममिद्दधे ये त्वामिन्द्रन् तुष्टुवुरुष यो ये च तुष्टुभुः ममेद्वर्धस्व सुष्ठुतः मा भूमनिष्ट्या इवेन्द्र त्वदरणा इव वनानि न प्रजहितान्यद्रिवो दुरोषासो अमन्महि अमन्महीद नाशवोऽनुग्रासष्टवृत्रहन्न सकृत्सुते महताशूरराधसानुस्तोमं मुदीमहि
इवा सोमोमिन्द्रमन्दतु त्वायन्ते सुषावहद्यश्वाद्रिः सोतुर्बाहुभ्यां सुयतो नार्वा यस्ते मदो युज्यश्चारुरस्ति येन वृत्तानि हर्यश्वांसि सत्त्वामिन्द्रप्रभूव सोममत्तु बोधा सुमे मघवन्वा तमे मायान्ते वसिष्ठो अचोति प्रशस्ते इमा ब्रह्म सुधमादेषु मादे दुषस्वा सग्ध्यूषुषति पत इन्द्रविश्वाविरूदिभिः भगन्नयित्वा यृषसां वसुविधमनुषूरचरामसि पौरोश्वश पुरुकृद्गवामस्युत्सो देवहिरण्ययाः न किहृदानं परिमर्धि शत्वे यद्यद्याभिमिददा भोरा इन्द्रमिद्देवदातय इन्द्रां प्रयत्यध्वरे इन्द्रां समीके वनिनो वामः इन्द्रन्दनसि साधये इन्द्रो मन्नारोदसि बपृथक्षव इन्द्रः सूर्यमरोदयद इन्द्रे हविश्वा भुवनानि ये मिर इन्द्रे सुवानास इन्दो वाह अस्ताभिमन्मो पूर्व्यं ब्रह्मेन्द्राय वोचदा पूर्वीरहृदस्य गृहतेरनुषदस्थो दुर्मेधा सुषदा तुरण्यवो मधुमन्तङ्गदसुतं विप्रासो अर्कमानुषुः अस्मे रयि पप्रथे वृष्ण्यं शवोऽस्मे सुवानास इन्दो वाह यदीन्द्रप्रागपाकुदान्नग्बाहूयसेनुभिः सीमा पुरूनिषूतो अस्या न वेसि प्रसादतुर्वशे यद्वारुमेषो मे श्यावोके कृप इन्द्र मादय शेषजा कण्वासस्त्वा ब्रह्मभिस्तोमो वासो इन्द्राय क्षन्त्यागो हि अभिद्वा शूरनो नुमो दुग्धायुव धेनवाः ईशानमस्य जगतस्वदृशमीशानमिन्द्रतस्तुषाः न त्वाम् अन्यो दिव्यो न पार्थिवो न जातो न जोनिषते अश्वायन्तो मघवन्निन्द्रवाजिनो गभ्यन्तस्त्वा भवामहे रेवती न सधमान इन्द्रे सन्ततु विवाजाः सुमन्तो याभिर्मते मा आगत्वा मान्त्मनाप्तस्थो दुभ्यो दुष्णुभिहानः ऋणो रक्षन् चक्रियो आयदुवशतक्रतवादामाण्डर्तॄणाम् ऋणो रक्षन् शचीभिः तत्सूर्यस्य देवत्वं तन्मोहितं मध्याकर्तोर्मितोदं सञ्जभारा यदेतयुक्तहरितसदस्थादाद्रात्रीवासतनुते सिमस्मै तन्मित्रस्य वरुणस्य वरुणस्याभितक्षे सूर्यो रूपं कृते द्योरुपस्थे अनन्तमन्यद्विषदस्य पादकृष्णमन्यद्धरितसम्भरन्ति कया न चिद्र आभुवदूती सदावृतसखा कया श्रुतिश्रयावृता कस्त्वा सत्योमदानामं हिष्ठोमसदन्धोसः राचिदारुजेवसु हवीषु न सखी नाम विदातृतॄणां शतं भवास्यूतिभिः इमानुकं भुवनाशीष धामेन्दश्च वृत्रे विश्वेर्देवाः यज्ञं च न स्थान्वाञ्च प्रजाञ्चादित्यैरिन्दसहचे कृपाति आदित्यैरिन्दसगणो मरुभिरस्माकं भूतभिदातनूनां हत्वा यो देवासुरा निदायन् देवादेवतोऽभिलक्षमाणाः प्रत्यञ्चो मर्कमनयञ्छीभिरादि स्वदामि शिराम्बर्यो पश्यन् अयावाजान् देवहितं सनेम मदेम शतहिमा सुवीराः अपेन्द्रप्राचो मघवन्न मित्रा न पापाचोऽभिभूतेन्द्रस्व अपोदेजो पशूराधरा च उरौ यथा तव शरमन्मदेम कुविदङ्गयव मन्दो यवञ्चिद्यथातान्तिनु पूर्वं वियूय इहे हैषां गृहि भोजो नानि ये बलिशो नमो वृतिर्न जग्मुः न हि स्थूर्यऋतुधायातमस्ति नो दश्रवो विविधे सङ्गमेषु गभ्यन्त इन्द्रां सख्याय विप्राश्वायन्तौ वृषणं भद्वादयन्तः युवं सुरामोमश्विनानमूचा वासुरेश च विपानाशुगत्पति इन्द्रं कर्म स्वावताम् पुत्रमिव पितरा वश्विनोभेन्द्रावथो काव्ययेदंशनाभिः यत्सुरामं व्यपि वशजीभिपसरस्वती त्वां मघवन्न विष्णको इन्द्रसुत्रामास्ववाम् अवो विस्मृडीको भवतु विश्ववेदाः बाधोतान्द्वेषोभयन्न कुनोतु सुवीर्यस्य पतयस्याम ससुत्रामासुवामिन्द्रो अस्मद्दा अस्मदादाचिद्वेषतनुतयुयोतु तस्यो वयं सुमतौ यज्ञस्यापि भद्रेशौ मनसे स्याम विशोतोरसुक्षतनेन्द्रान् देवमंसता यत्रामो तद्विशाकोऽपि दर्यपुष्टेषु मत्सौखायिन् विश्वस्मादिन्द्र उत्तराः पराहीन्द्रदावसि वृषाकोपेरतिव्यसीः लोह प्रवीन्दस्यन्यत्र सोमोऽपीदये विश्वस्मादिन्द्र उत्तराः किमयन् त्वां शाकोऽपि शकार हरितो मृगः यस्मा इलशसी दुन्वार्यो वा पुष्टिमद्वसु विश्वस्मादिन्द्र उत्तराः यमिमन्त्वं शाकोऽपिं प्रियमिन्दाभिरक्षोऽसि श्वान्वस्य जम्बिषदपि कर्णे वराहयुर्विश्वस्मादिन्द्र उत्तराः प्रियातष्टानि मे कपेर्व्यक्ताभ्यदूदुषत शिरोन्वास्य राविषन्न सुगन्धिषुकृते भुवं विश्वस्मादिन्द्र उत्तराः नमत्स्त्रीसुभसत्त रानसुयाश्रुतरा भुवद नमत्पतेच्चवीयसि न सक्षुद्धमीयसि विश्वस्मादिन्द्र उत्तराः उभे अम्बसुलाभिके यथे वाङ्गभविष्यति हसन् मे अम्बशक्ति मे शिरो मे विभविष्यति विश्वस्मादिन्द्र उत्तराः किं सुबाहो सङ्गुरे पृथिष्ठो पृथुजाघने किं शूरपत्निनस्त्वमभ्योमी शिवशाकोऽपिं विश्वस्मादिन्द्र उत्तराः अवीरामि भमामयं सदारुरभिमान्यते उदामस्मि वीरिणीन्द्रपत्नी मरुसोगा विश्वस्मादिन्द्र उत्तराः संहोत्रां स्म पुरा नारी समोनं वाव गच्छति वेदार्थस्य वीरिणीन्द्रपत्नी महीयते विश्वस्मादिन्द्र उत्तराः इन्द्राणी मासुनारिषु सुभगामहमश्रवाम् न हि यस्या परञ्चन जलसामरोते पदविश्वस्मादिन्द्र उत्तराः नहमिन्द्राणिरारुणसख्युवृषाकोपैर्हृते यस्येदमप्यां हविप्रियं देवेषु गच्छति विश्वस्मादिन्द्र उत्तराः वृषाकबाहिरेवति सुपुत्रो आदु शुश्नुषे हसत्त इन्द्रौक्ष्णप्रियङ्काचिकरं विश्व हविर्विश्वस्मादिन्द्र उत्तराः उक्ष्णो हि मे पञ्चदश साकं पतन्ति विंशतिम् उताहमद्निपेवो विदुभा कुक्षे पिनन्ति मे विश्वस्मादिन्द्र उत्तराः वृषभोन दिग्मशृङ्गोन्दर्यूथे शुरोरुवत मन्थस्थ इन्द्रसंहृदयन्ते शृणोति भावयुर्विश्वस्मादिन्द्र उत्तराः न शेषे यस्यूयस्य रम्भोतेन्द्रासक्त्याकप्लूतो शेदीश यस्य रोमशन्नि शेदिषो विजृम्भोते विश्वस्मादिन्द्र उत्तराः न शेषे यस्य रोमशन्नि शेदिषो विजृम्भोते शेदीश यस्य रम्भोतेन्द्रासक्त्याकप्लुद्विश्वस्मादिन्द्र उत्तराः अयमिन्द्रवृषाकोऽपि परस्वन्तं हतं विदतो